द्वितीय मंत्र का शांकर भाष्य कुर्वन्नेव इह निवर्तयन्नेव कर्माण्यग्निहोत्रादीनि जिजीवी से जिजीवितुमिच्छेतम् शतसंख्याकाः समाः संवत्सरान् तावद्धि पुरुषस्य परमायुनिरूपितम् यथा च प्राप्तानुवादेन यजीजीवी सेच्छतम् वर्षाणि तत् कुर्वन्नेव कर्माणीत्येद्विधीयते। एवमेव प्रकारेण त्वयि जिजीवषिति नरे नरमात्राभिमानीनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्तमानात् प्रकारादन्यथा। प्रकारान्तरं नास्ति येन प्रकारणाशुभं कर्म न लिप्यते कर्मणा न लिप्यत इत्यर्थः। अतः शास्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत। कथं पुनरादिमवगम्यते पूर्वेण संन्यासिनो ज्ञाननिष्ठोक्तं द्वितीयेन तदशक्तस्य कर्मनिष्ठेति। उच्यते ज्ञानकर्मणो विरोधं पर्वतदकाम्यं यथोक्तं न स्मरसि किम्। उपाह्युक्तं यो हि जिजीवेषेत स कर्म कुर्वन् ईशावास्यमिदं सर्वं तेन त्यक्तेन भुञ्जिथाः मागृदः कस्य स्विद्धनम् इति च न जीविते मरण वाग्रिधिं कुर्वितारण्यमियादिति च पदं ततो न पुनरीयात् इति संन्यासशासनात् उभयोः फलभेदं च वक्ष्यति। इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्च उत्तरेण निवृत्तिमार्गेण एषणात्रयस्य त्यागः त्रयो संन्यासपथ एवातिरेचयति न्यास एवात्यरेचयत इति च तैत्तरीयके द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः प्रवृत्तलक्षणो धर्मो निवृत्तश्च विभावितः इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता विभागञ्चानयोः दर्शयिष्यामः।